Thank you.
येनाक्षरसमाम्नायम् अधिगम्यमहेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते. नमस्काराः. गतकक्षायां परिभाषाप्रकरणे काश्चन परिभाषाः अधीताः. आगमानां स्थानविषये चर्चा कृता. आगमाः त्रेधा भवन्ति, कित् कित् इत् चेति. तत्र यदि आगमः इत् स्यात् तर्हि आद्यन्तौ टकितौ इति सूत्रेण आदौ भवति, तथैव कित् आगमश्चेत् तेनैव सूत्रेण अन्ते भवति, नित् चेत् निदचोऽन्त्यात् परः इति सूत्रेण अन्त्यादतः परत्वेन आगमः भवति. ततः विभक्तीनाम् अर्थविषये किञ्चिदतीतं. षष्ठीविभक्तिः यत्र उपयुज्यते तत्र सर्वत्र स्थाननिरूपितसम्बन्धः षष्ठ्याः अर्थः, अर्थात् षष्ठीविभक्तिः उपयुक्ता चेत् तस्य स्थाने इत्यर्थः लभ्यते. यदा स्थाने कश्चन आदेशः क्रियते तदा अन्तरतमः अत्यन्तं सदृशः आदेशेषु यः अत्यन्तं सदृशः भवति स्थान्यः स एव आदेशो भवति. तस्य सादृश्यं चतुर्धा भवितुमर्हति. स्थानसादृश्यं, गुणसादृश्यम्, अर्थसादृश्यं, प्रमाणसादृश्यं चेति. तत्र एकत्रैव यदि अनेकविधं सादृश्यं स्यात् तर्हि यत्र अनेकविधमान्तर्यं तत्र स्थानतः आन्तर्यं बलीयः इत्युक्तत्वात् स्थानसादृश्यस्यैव सर्वप्राबल्यम् इत्येतावत् ज्ञातम्. इदानीं षष्ठीविभक्त्याः अर्थः ज्ञातः. अग्रे सप्तविभक्त्याः कः अर्थः इति विचार्यते. तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रम्. चत्वारि पदानि सन्ति तस्मिन् इति निर्दिष्टे पूर्वस्य. अत्र तस्मिन् इति यत् पदं श्रूयते तत् सप्तम्यन्तस्य अनुकरणम्, अर्थात् सूत्रे यदि सप्तम्यन्तं श्रूयते यत्र कुत्रचित् पाणिनीयसूत्रे यदि सप्तम्यन्ततया किञ्चित् पदं श्रूयते तस्मिन् इति निर्दिष्टे, अर्थात् सप्तमीविभक्त्या यदि पदं निर्दिश्यते तर्हि पूर्वस्य कार्यं भवति. इको यणचि अचिपरतः पूर्वस्य कार्यं भवति. सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यम् इति परिभाषार्थः. पुनः पुनः उच्यते मया परिभाषा नाम अनियमे नियमकारिणी परिभाषा. यत्र अनियमः अस्ति तत्र परिभाषया नियमः क्रियते. अस्याः परिभाषायाः अभावे कीदृशः नियमः स्यात् इति प्रश्नः. इयं परिभाषा नास्ति चेत् साधारणतया सप्तम्याः कः अर्थः? अधिकरणम् अथवा आधारः सप्तम्याः अर्थः. अहं गृहे अस्मि इति चेत् गृहं मम स्थितेः आधारम्, तस्मात् गृहे इति सप्तमी. सप्तम्याः लोके आधारः अर्थः, किन्तु शास्त्रे सः अर्थः न युज्यते. यतोहि एकस्मिन् वर्णे अन्यः वर्णः भवितुं नार्हति, तस्मात् भिन्नम् एव आधारम् अत्र स्वीकरणीयम्. तच्च कीदृशम् इति अनेन सूत्रेण उच्यते. इदानीम् इयं परिभाषा नास्ति चेत् द्वेधा अनियमस्य प्रसक्तिः अस्ति. अर्थात् इदानीम् इति अपि इत्यस्ति. इकार तकार इकाराः ततः अकार पकार इकाराः इति षड्वर्णाः सन्ति. तत्र अकारः अस्ति. इको यणचि इति सूत्रे निर्दिश्यते अचि. अचि इत्युक्ते किम्? पूर्वस्य इकः स्थाने, षष्ठीस्थाने योग इति परिभाषया इकः स्थाने इति लब्धम्, किन्तु अचि इत्युक्ते अचि परतः वा अधः परस्य वा इति अनियमः. द फस्ट् डौट् यु आल्वेस् गेट् वेन् यु हियर् अचि इन् द अब्सेन्स् आफ् दिस् परिभाषा वुड् बि, ऐ मीन् द हियरिङ्ग् अच् यु नो दट् देर् मस्ट् बि एन् अच्, But should your ik be before ach or after the ach? Is the first question, which this paribhasha answers. And it says purvasya, which means that the karya will always happen only when the sthani is before the saptami nirdishta pada. Ikaha achi ityukte, achi parataha purvasya karyam bhavati. Iti prathamaha niyamaha. The first rule that this paribhasha specifies is that if there is a word in the sutra which is indicated in saptami vibhakti, the karya, whatever is the karya, say yanadesha, is always for a varna which comes before ach. Okay? So that ach should be before. That is why we will not get yanadesha for this ik. Even though this ik is also close to ach. I mean, if you take off the hal, it is the next ach. Still, the sutra tells, tasmin iti nirdishte purvasya. Paratvat asya ikaha yanadesha na bhavati. इदानीं पूर्वस्य इत्युक्ते अपि अयमपि अस्ति अयमपि अस्ति द्वौ इकारौ स्तः अतः पूर्वत्वेन कस्य इकारस्य आदेशः स्यात् इत्युक्ते अव्यवहितपूर्वस्य इत्यपि नियमः क्रियते यः वर्णः सप्तमीनिर्दिष्टेन अव्यवहितः दट् विच् इस् नाट् सेपरेटेड् बै एनिथिङ्ग् एल्स् दट् इस् द षष्ठी द स्थानी एण्ड् द सप्तमी निर्दिष्टपद शुड् नाट् हाव् एनिथिङ्ग् एल्स् सेपरेटिङ्ग् दम् That is when you get the adesha. So, dvedha niyamaha, purvasyaiva, avyavahitasyaiva. This paribhasha says that whenever a saptami word is used in a sutra, you have to, the karya will happen for something which precedes the saptami and which is right next to it. That is, which does not have anything else between. So, the sutra artha only, अज् अव्यवहितपूर्वस्य इतः स्थाने यणादेशः स्यात् दट् इक् विल् बि रिप्लेस्ड् बै एन् विच् इस् इमीडियट्लि प्रिसेडिङ्ग् द अच् इस् वाट् द मीनिङ्ग् यु गेट् यूसिङ्ग् तस्मिन् इति निर्दिष्टे पूर्वस्य सप्तमी विभक्त्याः अर्थः अव्यवहितपूर्वस्यैव कार्यं भवति तथैव पञ्चमी विभक्तिः अपि उपयुज्यते सूत्रकारे तस्याः कः अर्थः इति चेत् तस्मादिति उत्तरस्य तस्मात् इति उत्तरस्य इति सूत्रत्रयं पदत्रयमस्ति सूत्रे पूर्वसूत्रात् तस्मिन् इति निर्दिष्टे पूर्वात् पूर्वस्य इति सूत्रात् निर्दिष्टे इति अनुवर्तते तस्मात् इति निर्दिष्टे उत्तरस्य परस्य कार्यं भवति तस्मात् इति पञ्चम्यन्तस्य अनुकरणं सूत्रे पञ्चम्यन्तस्य प्रयोगः अस्ति चेत् तस्मात् परस्य कार्यं भवति पञ्चमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य परस्य ज्ञेयम् यः शब्दः पञ्चम्यां निर्दिष्टः तस्मात् अव्यवहितपरत्वेन यः वर्णः अस्ति तस्यैव कार्यं भवति अनयापि परिभाषया द्वेधा नियमः क्रियते परस्यैव कार्यं भवति अव्यवहितस्यैव कार्यं भवति करणं पश्यामः उदस्थास्तम्भोः पूर्वस्य इति सूत्रमस्ति उदः स्थास्तम्भोः पूर्वस्य उदः इति पञ्चमी विभक्त्यामस्ति स्थास्तम्भोः इति षष्ठी अर्थात् स्थाधातोः स्तम्भधातोश्च आदेशः भवति स्थाने आदेशः भवति उदः अर्थात् उदः परयोः वेन् इदर् स्थाधातु आर् स्तम्भधातु इस् इमीडियट्लि फालोयिङ्ग् उद् Udu is the upasarga. If you remember in our pradi list, pradayaha, pra, para, apasam, anu, ava, nis, nir, dus, dur, vi, an, ni, adhi, api, prati, pari, su, ut. Ut comes in that list. Ut is an upasarga. So when ut, when stha or stambha is immediately following ut, then you get pura savarana as the adesha. Is what this sutra tells. Udah parayoho स्थास्तम्भोः पूर्वसवर्णः स्यात् इत्युक्ते उद् अव्यवहित उत्तरस्य अनया परिभाषया तस्मादित्युत्तरस्य इति परिभाषया उत् इत्यस्मात् अव्यवहितपरत्वेन यदा स्थाधातुः स्तम्भधातुर्वा अस्ति तदैव पूर्वसवर्णः भवति उत् स्थानम् इत्यस्ति इदानीं सकारस्य पूर्वसवर्णे सति थकारादेशे सति उत् स्थानम् उत्थानम् इति रूपं सिद्ध्यति किमर्थमत्रापि अव्यवहितपरस्य इति चेत् उत संस्थानम् इत्यस्ति, उतः परत्वम् अस्ति स्थाधातुः, किन्तु मध्ये सम् इत्यपि उपसर्गः अस्ति, व्यवहितत्वम् अस्ति. देर् इस् अ ब्रेक् बिट्वीन् उत् अण्ड् स्थानम्. स्थाधातु इस् नाट् इमीडियट्लि फालोयिङ्ग् उत्. That is why this paribhasha will not apply here and you will not get the karya. This paribhasha tells a karya will happen only when the panchami word is immediately followed by the sthani. Since there is a vyavadhana here by sam, you will not get the upasavarnadesha. Right? Shashti vibhaktyaha sthane ityartha, saptami vibhaktyaha पूर्वस्य कार्यं भवति अव्यवहितपूर्वस्य कार्यम् इत्यर्थः, पञ्चमी विभक्त्याः अव्यवहित उत्तरस्य कार्यं भवति इत्यर्थः. इदानीम् आदेशानां स्थानविषये किञ्चिदिव चर्चा प्रचलति. आदेशानां स्थानविषये पूर्वमेव किञ्चित् अधीतम्, इको गुणवृद्धिः तथा अतश्च. यदा गुणः वृद्धिर्वा आदेशो भवति तदा इकः स्थाने आदेशः भवति इति ज्ञातं. तथैव ह्रस्वः दीर्घः प्लुतो वा आदेशः भवति चेत् अचः स्वरस्य एव आदेशः भवति इत्यपि ज्ञातम्. किन्तु तथा किमपि नास्ति चेत् सामान्यतः आदेशस्य स्थानं किम् इति प्रश्ने औत्सर्गिकं सामान्यं सूत्रं भवति अलोन्त्यस्य. देर् आर् मेनी सूत्रस् विच् गवर्न् द प्लेस् आफ् एन् आदेश, the exact letter of replacement. That is, if you say there is an adesha for pada shabda, which letter in pada shabda should be replaced? Do you replace the whole of the shabda or do you replace only one letter or a part? That's the question. So this whole replacement position, positioning of replacement is governed by four sutras. Okay, so only when we know all the four sutras can we actually decide the position properly. The first among these is the general sutra. That is, by default this is what applies, but for this you have exceptions. So once you know the exceptions and then come back to the default, it can clearly say which adesha replaces what. So the default is alonkya. Utsargikam utsargaha athava samanya sutram nama apavadanam abhave samanyatah yat sutram उपयुज्यते तदेव उत्सर्गः अथवा सामान्यसूत्रम् इत्युच्यते. आदेशानां स्थाननिर्णये अलोन्त्यस्य इति सूत्रम् औत्सर्गिकं सूत्रम्. पदद्वयमस्ति अलः अन्त्यस्य. अल् इति परिभाषा, क्षम्यताम्, अल् इति प्रत्याहारः. कः प्रत्याहारः? ऐ उन् इत्यतः इत्यत्र यः अकारः ततः आरभ्य हल् इत्यत्र यः लकारः ततः पर्यन्तम् अल् इति प्रत्याहारः. अल् इत्यनेन सर्वे वर्णाः सङ्गृह्यन्ते. संस्कृतवर्णमालायां माहेश्वरसूत्रेषु ये ये वर्णाः सन्ति ते सर्वेपि अल् इत्यनेन सङ्गृह्यन्ते. अल् इत्युक्ते एकः वर्णः. अन्त्यस्य अलः, आदेशः सर्वदा अन्त्यस्य वर्णस्य भवति इति सूत्रार्थः. षष्ठीनिर्दिष्टस्य, षष्ठीनिर्दिष्टः एव स्थानी, षष्ठीस्थाने योगः इति कृत्वात् यः षष्ठी विभक्तो निर्दिश्यते सः स्थानी. तस्य स्थानिनः अन्त्यस्य अलः, अन्त्यः यः वर्णः तस्य स्थाने आदेशः भवति इति सूत्रार्थः. इदम् औत्सर्गिकं सूत्रम्. उदाहरणं पश्यामः. त्यदादीनाम् अह इति सूत्रमस्ति. त्यदादीनां, त्यदादिः इति कश्चन गणः अस्ति, तस्मिन् गणे ये शब्दाः प्रथिताः तेषाम् अह नाम अकारः आदेशः भवति. त्यदादीनाम् इति षष्ठी, षष्ठ्यामुक्तत्वात् षष्ठीस्थाने योग इत्यनेन त्यदादीनां स्थाने अकारः आदेशः स्यात् इति सूत्रम्. तद् इति शब्दं, सः इति सर्वे जानन्ति एव, तत् इति शब्दः त्यदादिगणे अस्ति, एवं द्वि इति शब्दोऽपि त्यदादिगणे एव अस्ति. इदानीं तद् इत्यस्य अनेन सूत्रेण अकारः आदेशः करणीयः, एवं द्वि इत्यस्यापि आदेशः करणीयः. तदा अनया परिभाषया, अलोन्त्यस्य इति परिभाषया, अन्त्यस्य अलः आदेशः भवति. तद् इत्यत्र अन्त्यः अल्पः दकारः तु अद् इति वर्णत्रयम् अस्ति तत्र अन्तिमः वर्णः दकारः अत्र द्वि इत्यत्रापि वर्णत्रयम् अस्ति दकार वकार इकाराः तत्र अन्तिमः अल् भवति इकारः तस्मात् अत्र दकारस्य स्थाने अकारः आदेशः भवति अत्र इकारस्य स्थाने अकारः आदेशः भवति अन्त्यस्य अलोन्त्यस्य अन्त्यस्य अलः आदेशः भवति षष्ठीनिर्दिष्टस्य अन्त्यस्य अलः आदेशः भवति षष्ठीनिर्दिष्टः त्यदादयः नाम तद् इति शब्दः तथा द्वि इति शब्दः षष्ठीनिर्दिष्टस्य निर्दिष्टः तस्य अन्त्यस्य अलः स्थाने अन्तिमः यः वर्णः नाम तकारः इकारो वा तस्य स्थाने आदेशः भवति इति अनया परिभाषया लभ्यते कश्चन प्रश्नः अस्ति Priya has a question about I guess tasmin nitin prishte tasmad iti tarasti. Okay, let's go back. She says here, should it be ut or ud? The karya which is happening from udastha sambhoho purvasya is not ud to ut. Right? It is only the replacement of sakara by thakara. So the replacement of sakara by thakara does not happen here. The stha remains stha, ut samsthanam. This takara, the dakara becoming takara is another sandhi which is septa sandhi, which will happen in both cases. Right. Let's move on. Alontyasya. Adhyam sutram bhavati nitya. Idamapi adeshasya sthana nirnayam bhavati. Tadadvayam asti nitya cha iti. Purva sutrata alontyasya. Nama antyasya alaha iti anuvartate. Kaha arthaha nitya. यदि कश्चन आदेशः ञित् भवति ञित् नाम ञ इत् यस्य सः ञित् ङकारस्य इत्संज्ञा अस्ति चेत् सः ञित् यदि आदेशः ञित् भवति तर्हि सोऽपि अन्त्यस्यैव आदेशः भवति अयमपि नाम ञित् इति यः आदेशः सोऽपि अन्त्यस्यैव स्यात् अन्त्यस्य वर्णस्य स्थाने आदेशः भवति इमां पङ्क्तिम् अनन्तरं पश्यामः उदाहरणम् अनङ् सौ इति सूत्रम् अस्ति सुप्रत्यये परे सौ इत्युक्ते सु इत्यस्य सप्तम्यां सौ इति भवति सौ इति सुप्रत्यये इत्यर्थः तस्मिन् इति निर्दिष्टे पूर्वस्य अर्थात् सुप्रत्यये परे सखि इति अनुवर्तते सखिशब्दस्य अनङ् इति आदेशः भवति इति सूत्रार्थः सुप्रत्यये परे सखि इति इकारान्तः पुल्लिङ्गशब्दः सखिशब्दस्य सुप्रत्यये परे अनङ् इति आदेशः भवति इदानीं कुत्र भवेत् आदेशः इति चेत् ञिच्च इति सूत्रेण अयमपि अन्त्यस्यैव स्यात् अर्थात् सखिशब्दे यः अन्त्यः अल् नाम इकारः स् अ ख् इ इति चत्वारः वर्णाः सन्ति अन्तिमः वर्णः भवति इकारः खकारोत्तर इकारः तस्य स्थाने अनङ् इति आदेशः भवति सख् इ स् इति स्थिते इकारस्य अनङ् आदेशे सख् अन् स् इति आदेशः भवति किमर्थमिदं सूत्रम् इति प्रश्नः स्यात् यतोहि अलोन्त्यस्य इति सूत्रेणापि अन्त्यस्यैव आदेशः विधीयते तेन अस्य सूत्रस्य अभावेपि अलोन्त्यस्य इत्यनेनैव अन्तादेशः भवति खलु इति प्रश्नः स्यात् मे बि वण्डरिङ्ग् वै इस् दिस् सूत्र नीडेड् बिकास् आर् डिफाल्ट् सूत्र इस् अलोन्त्यस्य Alontyasya tells any adesha without any specification. Any adesha will generally be an adesha for the last letter. So why specify nit? Whether this sutra exists or not, you can still use Alontyasya and do an antadesha. Is a question which should arise. So the answer is that these are not the only two sutras. There are two further sutras. The next sutra is Adesh Parasya. तद्वयम् आदेः परस्य अलोन्त्यस्य इत्यस्मात् अलः इति अनुवर्तते, अन्त्यस्य इति न अनुवर्तते, यतोहि अत्र आदेः इति निर्दिष्टमस्ति. ओन्लि अलः इस् कमिङ्ग् फ्रम् अलोन्त्यस्य, अन्त्यस्य इस् रिप्लेस्ड् बै आदेः. This specifies a case in which instead of the last letter, you would be replacing the first letter. When is it? Parasya. When the adesha is for something which is para. Parasya yadvihitam, tattasya adher bodhyam. Yada parasya karyam bhavati. There are always two cases. Right? You can say that A is replaced by C when A is followed by B. That is, A plus B is your standard case. You can say when followed by B, A is replaced by C. Right? That would be an adesha for the purva. But you can also say when B is preceded by A, B is replaced by C. Okay? You can either do a replacement for the left hand side or the right hand side. When we do the replacement for the right hand side, you call it as the parasya adesha. A इत्यस्मात् परः यः बि तस्य स्थाने आदेशः क्रियते इति यदा उच्यते तदा आदेः कार्यं भवति. Whenever your the condition for the sutra to apply involves your sthani being next to something else, being para, then instead of replacing the last letter of the sthani, you will replace the first letter of the sthani. Example, we have a sutra which says dvyantar upasargebhyo pa eet. Dvi antar or upasarga. There are three things. Ebhyaha parasya ap shabdasya. It says when ap shabda is preceded by or it is immediately next to dvi antar or a upasarga, then the ap shabda will get an ikara as the adesha. Right? So how did you get this parasya? It's because of tasmadit yuttarasya. There is a panchami here. The panchami always tells the karya is for the following thing. So, when apshabda follows dvi, antar or apasarga, then apshabda should be replaced by ikara. This is the case. You have dvi and you have apa. Right? Now, you have to replace apa with e. If you apply alone, Alontyasya will tell that the final letter should be replaced by E, which means the pakarottara ika, akara. The last akara should have been replaced by E according to Alontyasya. But this adesh parasya tells whenever the adesha is for a para, atta apu iti paraha, dvi ityasmat parasya apaha adesha vidhiyate. Tasmat anaya paribhashaya adeha adesha bhavati. अर्थात अस्य अकारस्य स्थाने आदेशः भवति. इफ अलोन्त्यस्य हैड अप्लाइड द सेकंड अकार शुड हैव बीन रिप्लेस्ड बाय ई, बट सिंस आदेश परस्य टेल्स दैट व्हेनेवर द आदेश इज फॉर परा द फर्स्ट बिगिनिंग लेटर आदि विल बी रिप्लेस्ड बाय ई, व्हिच विल रिजल्ट द्वि ई प एंड द्वीप. अनेन द वर्ड द्वीप व्हिच मींस आइलैंड इज डिराइव्ड. सो आदेह परस्य द्वि इत्यस्मात् परस्य अपः विधीयमानः ईकारादेशः आदेः अकारस्य भवति इति अस्याः परिभाषायाः. What is an exception? It's something, an exception is always a subset of the Utsarga Sutra. An exception is a case where you always have a possibility of applying the Utsarga Sutra, then only it will be called an exception. Some sutra will be called an apavada only if it cannot apply anywhere other than where the Utsarga Sutra applies. For example, wherever you have Adesh Parasya, Alontyasya can also apply. Everywhere, since Alontyasya is a general sutra, everywhere you can use Alontyasya and do an Adesha for the last letter. But if the Adesha is for the Para, you have to do it for the Adi. That is, excepting in cases where the Adesha is for Para, Alontyasya will apply. So Adesh Parasya is an Apavada to Alontyasya. Instead of Alontyasya, you apply Adesh Parasya. Right? Ito Pemutramaske अनेकांशित सर्वस्य अनेकांशित सर्वस्य पदद्वयमस्ति सूत्रार्थः लिखितः दीक्षितैः स्पष्टम् किं स्पष्टम् यदि आदेशः अनेकाल् भवति अथवा षित् भवति तर्हि सर्वादेशः भवति इफ् द आदेश हेपन्स् टु बि अनेकाल् अनेक अल् मीन्स् इफ् द आदेश कण्टेन्स् मोर् देन् वन् वर्ण और् इफ् द आदेश इस् षित् षि इति यस्य सः षित् यदि आदेशः अनेकाल् भवति अथवा षित् भवति तर्हि सर्वादेशो भवति उदाहरणार्थम् अनेकालः उदाहरणं पश्यामः अस्तेर्भूः इति सूत्रमस्ति असुधातोः अर्धधातुके परे भू इति आदेशः भवति अस् विल् बि रीप्लेस् बै भू इस् वाट् द सूत्र टेल्स् रैट् नो हियर् द आदेश इस् भू भू इति आदेशः अयं च अनेकाल् अनेक मीन्स् मोर् देन् वन् सो यु हेव् टु लेटर्स् हियर् भू एण्ड् उ सो भू इस् एन् अनेकाल् आदेश अनेकाल् सर्वस्य आदेशः भवति सर्वस्य मीन्स् द होल् आफ् अस् If you have asu and little, the whole of us will be replaced by bhu. That is called sarvadesha. If alontyasya applied, you would have replaced only the sakara with bhu. But since this sutra tells anekal shit sarvasya, yadi adeshaha anekal bhavati, tarhi sarvasya sthane adeshaha bhavati. Arthat asu iti sarvasya sthane bhu iti adeshaha bhavati. If the adesha has more than one letter, then the whole sthani is replaced by the adesha. Also, yadi adeshah shit bhavati, tadapi sarvasya adeshah bhavati. Udaharanartham, idama ish, iti sutra masti. Ish ityatra shakarasya itsamya, halantyam ityanena shakaraha ita. I iti ekam ekaha varnaha shishyate. You should notice that ish is not anekal. Because when you are considering ekal or anekal, you do not take the it samya letters into consideration. You shu anyway goes off, so what is left is only e. E is ekal. Still, since it is shit, idam kaha, it is kita, idam iti samagrasya shabdasya, sarvasya sthane e iti adeshka bhavati. Again, this sutra is an exception to alontyasya. If alontyasya applied, then only the makara should have been replaced by ikara. Antyasya laha adeshaha. Since anekal shit sarvasya is an exception, if the adesha is either anekal or shit, then the whole thing will be replaced. Right? Idam, the whole of idam is replaced by e. So, alontyasya iti sutra apavadaha. Anekal shit alontyasya iti sutrasya apavadaha. This is an exception to alontyasya, right? So, since it is an exception, if ever you have a doubt, should I do alontyasya or should I do anekalshit sarvasya, the exception always gets the prominence. So, you will do or we will do anekalshit sarvasya. But what happens if I get a doubt, should I do adeshparasya or anekalshit sarvasya? Because this is an exception only to alontyasya, not to adeshparasya. Right? So, if there is a clash between adeshparasya and anekalshit sarvasya, what would happen? Ashtabhya aushityadav adeshparasya ityetadapi paratvad anena badhyate. If we see the sutra krama, we'll see that alontyasya is 52, nitya is 53, Adesh Parasya is 54, Anekanshit Sarvasya is 55. Right? There is one more Paribhasha which we will see later, which tells that the Parasutra is always the most, is always more powerful than a Purva Sutra. Since Anekanshit Sarvasya is the Parasutra, if ever there is a clash between Adesh Parasya and Anekanshit Sarvasya, we will still apply Anekanshit Sarvasya. An example is Ashtabhya Aush. अष्टन् शब्दात् परयोः दशतोः औष् आदेशः स्यात् दिस् सूत्र टेल्स् इफ् अष्ट इस् फालोड् बै अष्टाभ्यः इति पञ्चमी अष्टशब्दात् परस्य जस् प्रत्ययस्य औष् इति आदेशः भवति औष् इति षित् षकारः इति भवति अतः षित् Now, here you have a clash between Adesh Parasya and Aneka Ashitakasya. Since this is a Parasya Adesha, Ashtan Shabdan Parasya Dasaha Adesha Ityukasvata, Adesh Parasya Ityanena, Adehe Jakarasya Adesha Havetva, Athava Akarasya Adesha Havetva, Athava Aneka Ashitakasya Ityanena, Sarvadesha Havetva. The Prashne, Parasvat Sarvadesha. The whole of this is replaced by au. So, anekashit sarvasya applies always. That is, whether you have a chance for alonkyasya or adesh parasya does not matter. If the adesha is either anekal or shit, it is always a sarvadesha. Is the meaning of this sutra. Right? Now, if all these four sutras are very important for determining the place of any adesha. Right? So you have alonkyasya, which is 52, nitya, adesh parasya and anekashit sarvasya. Alonkyasya is the general sutra. Adesh parasya is an exception to alonkyasya. If the adesha is for para, then you have to do it for the adi and not the antya. Anekashit sarvasya is also an exception to alonkyasya. If the adesha is anekal or shit, then instead of doing it as an antyadesha, we will do it as a sarvadesha. Nitya, which we didn't touch, is an exception to anekal shit sarvasya. Because any adesha which is nit is always anekal. You see that in grammar, all nit adeshas are also anekal. So by default you had alonkyasya which said adesha is for antya. Overruling it is anekalshit sarvasya which tells if the adesha is anekal then it will be sarvadesha. Overruling this it tells if the adesha is anekal and happens to be nit then it will again be an antadesha. That is why nitya is an apavada to anekalshit sarvasya. No? Anekashit sarvasya is not an exception to adesh parasya, but it is still paratvat badhakaha. If there is a clash between adesh parasya and anekashit sarvasya, it is still anekashit which will apply because it is the parasutra. Right? Now, what do we do if we have to take a complete thing on the adesha? First you have an adesha. Okay? If the adesha is guna or vritti, then you don't have to go into any of these processes. It will directly be iko guna vritti. Whatever is the ik in the sthani, that will be replaced. Again, if the adesha is hrasva, dirgha or pluka, then also you do not have to think. Then the ach will be the sthani. Iko guna vritti and achashcha will apply. If the adesha is not any of those, guna vriddhi hasra dirgha pluta bhinnaha adesha shcheta, the first thing you have to decide is it nit or anit? Is nakara it in that or not? Yadi nit adesha, tarhi nitcha iti antya adesha bhavati. Udaharanam anangsau, sakhi su ityaste, sakhan su iti antyasya sthane, nitcha ityanena antya adesha bhavati. Yadi nit nasti, तर्हि अग्रे गन्तव्यम् एकाल् आदेशः वा अनेकाल् वा इति अग्रिमः प्रश्नः. द नेक्स्ट् स्टेप् यु हव् टु सी इस् इफ् इट् इस् एकाल् आर् अनेकाल्. यदि अनेकाल् आदेशः तर्हि अनेकाल्चित् सर्वस्य इत्यनेन सर्वादेशः भवति. उदाहरणार्थम् अस्तेर्भूः इत्यनेन असुधातोः भू इति सर्वादेशः भवति. यदि आदेशः एकाल् तर्हि पुनः द्रष्टव्यं षित् वा अशित्. Is it shit or not? Is the next step. If the adesha happens to be ekal. If it is anekal, then you directly do anekal shit sarvasya. But if it is ekal, then again you have to see is it shit or ashit. If it is shit, then again anekal shit sarvasya ityanena sarvadesha bhavati. Udaharanam purvam drashtam idam ish. Idam shabdasya ish iti ikaraha sarvadesha bhavati. Now if it is ashit. If it is not shit, then again you have to see is it an adesha for the purva or the para. Right? Yadi parasya adesha, tarhi adesh parasya iti परस्य आदेः आदेशः भवति. उदाहरणार्थं द्व्यन्तरूपसर्गेभ्यो परि. नौ इफ् नन् आफ् दीस् इफ् युवर् आन्सर् टु आल् आफ् दीस् इस् नो दट् इट् इस् नाट् नीत् इट् इस् नाट् अनेकाल् इट् इस् नाट् शिप् देन् वाट् एवर् इस् लेफ्ट् विल् बि अलोन्त्यस्य एण्ड् यु गेट् अन्तादेश. इट् विल् बि एन् आदेश टु द एण्ड् वेदसूत्र अलोन्त्यस्य. Right? So, you see that the Utsarga Sutra, the general Sutra, always applies last. You take out all exceptions and whatever is left will be where the general Sutra applies. So, the order you should go to find out if it is Guna or Vriddhi. Then it's a separate Paribhasha, Iko Guna Vriddhi. If it is Harsva Dirgha Pluta, it is Atascha. If it is Neet, then it is Neetcha. If it is Anekal, then it is Anekal Chit Sarvasya. If it is Shit, then also it is anekarshit sarvasya. If it is a paradesha, then it is sadesh parasya. If it is none of this, then finally you can apply alonthyasya and do an adesha for the final letter. Right? Now, if you back a bit and just look at this. Alonthyasya. It says, Ausargikam Sutra. If you look at the example, Yadadinam Aha. This Akara is not Nit, is not Anekal, not Shit. Therefore, you can apply Alonthyasya and you will get Antyadesha. Right? Since this does not belong to the any other categories, you have it as an Antyadesha. If you go to Nitcha, this anang happens to be anekal, right? A, n, a. You have many different als. You have two als in this. So this is anekal. So if nitya weren't there, anekalship sarvasya. By anekalship sarvasya, this should have been sarvadesha. But since nitya is an apavada to anekalship sarvasya, since this is a nitadesha, we do it as the antyadesha. Then you have jantarupasargebhyopa eat, where e is not Neta, not Anekal, and not Shit. So you eliminated the previous three. It is an Ekal Adesha. Now the question is it an Adesha for the Purva or the Para? Since it is Adesha for the Para, you do it as an Adesha for the Adi. And Anekal Shit Sarvasya is clear. Hu is an Anekal, so it is a Sarvadesha. Ish is E. Even though it is Ekal, it is Shit. Therefore, it is a sarvadesha. That's about this. Now, the last sutra, Paribhasha Prakarane Antimam Sutram Pavati, Svaritena Adhikaraha. Padadvayamaste, Svaritena Adhikaraha. Asmavihi Bhutta Dushtam, Anuvrittihi Iti Adhikarashcheti. Sutreshu Adhishtam Padam, Sutrantara Danuvartaniyam Sarvatra. अस्मिन् सूत्रे तस्य पदस्य श्रवणं नास्ति चेत् पूर्वसूत्रात् अनुवृत्तिः इति क्रियते. किन्तु अनुवृत्तिः कस्य पदस्य कर्तव्यः, कस्य पदस्य अनुवृत्तिः कर्तुं शक्यः इति संशये जाते इयं परिभाषा वदति स्वरितेन अधिकारः. स्वरितत्वयुक्तं शब्दस्वरूपम् अधिकृतं बोध्यम्. यस्मिन् शब्दे स्वरितस्वरः अस्ति सः शब्दः अनुवृत्तः, अधिकृतः नाम अनुवृत्तः भवति. ओन्लि दट् वर्ड् विच् हेस् अ स्वरितस्वर केन् बि टेकन् ओवर् टु द नेक्स्ट् सूत्रास् इस् वाट् दिस् सूत्र टेल्स्. उदाहरणार्थम् आद् गुणः इत्युक्ते तत्र आत् इत्यत्र आकारः स्वरितः. तस्मात् अग्रिमसूत्रे वृद्धिरेचि इत्यत्र आत् इति अनुवर्तते. आद् एचि परे वृद्धिः स्यात्. किन्तु प्रश्नः स्वरितस्वरः कथं ज्ञायते? लैक् वि डिस्कस्ड् फार् अनुनासिक द उदात्त अनुदात्तस्वरित इस् आल्सो संथिङ्ग् विच् इस् नाट् फौण्ड् इन् कान्वर्सेशनल् संस्कृत् टुडे. वेन् यु आर् स्पीकिङ्ग् क्लासिकल् संस्कृत् वी डु नाट् इण्टर्नेट् द स्वर इण्टर्नेट् द लेटर्स् वित् ईदर् उदात्त अनुदात्त आर् स्वरित. देर्फोर् अनुनासिक्यवत् स्वरितोच्चारणमपि प्रतिज्ञागम्यम्. स्मरन्ति चेत् मुखनासिकावचनोननासिकः उपदेशेयजननासिक इति इत्यत्र प्रतिज्ञाननासिक्याः पाणिनीयाः इति उक्तम् आसीत्। अनुनासिक्यं कथं ज्ञायते इति चेत् गुरुपरम्परया ज्ञायते। एवं स्वरितत्वमपि गुरुपरम्परयैव ज्ञायते। कस्य पदस्य अनुवृत्तिः कियत्पर्यन्तम् अनुवृत्तिः इत्युभयमपि व्याख्यानादेव ज्ञातव्यम्। बोत् द डिसिशन् आफ् विच् पदा टु बी टेकन् फार्वर्ड् एण्ड् टिल् वेर् टु टेक् इट् फार्वर्ड् विल् डिपेण्ड् आन् कमेण्टरि। देर् इस् नो वे वी केन् डिसैड् इट् जस्ट् बै लुकिङ्ग् एट् अ सूत्र विच् पदा विल् गो फार्वर्ड् एण्ड् विच् विल् नाट्। इट् आल्वेस् डिपेण्ड्स् आन् द कमेण्टरि लैक् भाष्य आर् लैक् अदर् लेटर् रैट्। आफ्टर् दिस् परिभाषा देर् आर् त्री अदर् परिभाषास् विच् आर् गिवन् इन् द कौमुदि। परनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः, असिद्धं बहिरङ्गमन्तरङ्गे, अण्ड् अकृतव्यूहाः पाणिनीयाः। दीस् त्री आर् नाट् परिभाषा सूत्रास्, दट् इस् दे आर् नाट् सूत्रास् आफ् पाणिनि, दे आर् सेपरेट् परिभाषास्, दट् इस् दे आर् सेपरेट् रूल्स् विच् हेड् बीन् इन्वोक्ड् इन् पाणिनीस् टैम्। Even in Panini's time, these paribhashas were there, composed by different vayakaranas, and some have been added later. They are given in a separate grantha called Paribhashendu Shekhara and some others. All these rules, some of these are accepted by Paninian scholars also, depending on some of them have been told in the Bhashya or in the Vartika, or Panini himself has indirectly told them somewhere. So all these are called paribhashas, where you see in the bracket there is a pa, and there is a number indicating the number of the paribhasha, right? So even though they are not sutras of Panini, they are statements or rules which are accepted by Panini. But about these three rules, I would like to come back to this after we do a few prakriyas. I'm explaining these three paribhashas without good knowledge of prakriya is a bit difficult for myself, and even understanding my a bit complicated for you. So let's just leave these three statements for now. And we'll come back to this once we have done with a few of the prakriyas, say sandhis and indanamapada prakarana. Then when some occasion arises, we can come back to this and discuss about these three. There are three here. There is one paranityantarangapavadanam uttarottaram valiyah, asiddham bahirangamantarange, and akutavyuhas paniniyah. All these three I'll come at some point at a later stage. Atra paribhasha prakaranam asta samapyate. Kim abhut paribhasha prakarane vibhakti nam artha nirnayah. Vyakarana shastre ka vibhakti kasmin arthe upayujyate. Shashti vibhakti sthane. Shashti sthane yoga. Yah shabdah shashtyam nirdishtah tasya sthane karyam bhavati. सप्तमी विभक्तिश्चेत् अव्यवहित पूर्वस्य कार्यं भवति। पञ्चमी विभक्तिश्चेत् अव्यवहित उत्तरस्य कार्यं भवति। केन सूत्रेण नियोग तस्य पूर्वस्य ततस्तमहितम् आगमानां स्थाननिर्णयः। आगमः कुत्र भवेत्, आदौ वा अन्ते वा मध्ये वा इति चेत् यदि तित् आगमः तर्हि आदौ भवति, यदि कित् आगमः तर्हि अन्ते भवति, यदि मित् आगमः तर्हि अन्त्यादचः परत्वेन भवति। आद्यन्तौ टकितो तथा निदचोऽन्त्यात् परः इति परिभाषाद्वयम्। अनेन आगमानां स्थाननिर्णयः कृतः। अग्रे आदेशानां स्थाननिर्णयः। आदेशः क्व भवेत् इति चेत् यदि आदेशः गुणो वा वृद्धिर्वा भवति तर्हि इकः स्थाने भवति, इको गुणवृद्धि इति सूत्रेण। यदि आदेशः ह्रस्वः दीर्घः प्लुतो वा भवति तर्हि अतः स्थाने भवति, अतश्च इति परिभाषया। यदि ञित् भवति आदेशः तर्हि अन्त्यस्य भवति, ञित्च इति सूत्रेण। यदि अनेकाल् आदेशः भवति तर्हि सर्वादेशः, अनेकाल्षित् सर्वस्य इति सूत्रेण अनेकान् षित् इति उभयमपि सर्वादेशः। यदि परस्य आदेशः भवति तर्हि तस्य आदेः, आदेः परस्य इति सूत्रेण। अन्यः यः कोऽपि आदेशः अदर् देन् दीस् एनी अदर् आदेश विल् बि अलोन्त्यस्य it will be an antyadesha, right? So that ends paribhasha prakarana. Prashnaha santi chet prachyante. Any questions? You can ask.
So, maybe this Kalpesha, I have a quick question.
Yeah.
Would there be a case where you could have Rasva Dirgha Plutaha Adesha and the Sthani having multiple Ach?
No, the Rasva itself, Sthani having multiple Ach, it has more than one Ach.
Yes.
Yeah, there could
be. So, in that case, we will still use Alantasya?
So Rasva Napumsati. No, you won't use a lot. Okay. It will be for the Ach. But the question is for which Ach?
Yes.
Then it will be, we take it as the closest, whatever is closest to the Pratyaya.
Oh, closest to the Pratyaya. And that will be by which rule?
Alonchesya will generally not apply. Yeah. But that will be the last. There is something, a rule called Pratyaya Satya and Vyapti. I mean, they are separate rules. You say Vyapti Nyaya and Pratyasati Nyaya.
Okay.
So, there is a paribhasha which tells. There is a paribhasha which tells that. I'm getting the exact words of the paribhasha.
That is okay, but there is some cases like that which is covered up by a paribhasha.
Sure, yeah.
Okay, thank you.
Any other questions?
I had a quick question about this Anekal Chit Service, if I may ask you that.
Sure.
It's not related to what you've already taught, but you know, for example, there's a sutra which is just a Soshi in Napumsaka, and there when we do the Shi Adesha, I think you explained that when you had the Gnana Shabda earlier.
Yeah.
So there we take Anekal, or would we take, because that Shit is not, Shakar is not in it until it becomes a Pratyaya.
Okay. So Anekal plus Sarvadesha.
Okay.
It's Dikshita Siddhanta.
Okay. Thank you.
Means you cannot do an Itsamya till it is an, only after it becomes an Adesha to the Pratyaya.
Okay.
You do Sthani Vadbhava and you call it a Pratyaya.
Okay.
So, Anekalpa Sarvadesha Hityeva Dikshitanam Siddhanta.
Okay. Thank you.
Any other questions? Okay, there seems to be nothing.